अथ चतुर्थोऽध्यायः श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवान् अहमव्ययं विवस्वा मनवे प्राग मनुः इक्ष्वाकदे ब्रवीत् एवं परम्परा प्राप्तम् इमम् राजशयो विदुः सकालेनेह महता योगो नष्टः परम् तपा रहस्यं केतदुत्तमम् अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः कथमेतद्विजानीयाम् त्वमादौ प्रोक्तवानिति भगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तान्यगं वेद सर्वाणि न त्वं वेत्थ परं तप अजोऽपि सन् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन् प्रकृतिम् स्वाम् अधिष्ठाय सम्भवामि आत्ममायया ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानम् सृजाम्यहम् धर्म संस्थापनार्था ಸಂಭವಾಮಿ ಯುಗೇ ಯುಗೇ. ಜನ್ಮ ಕಂಬ ಜಮೇ ದಿವ್ಯಂ ಏವಂ ಯೋ ವೇತ್ತಿ ತತ್ವತಃ ತ್ಯಕ್ತ್ವಾ ದೇಹಂ ಪುನರ್ಜನ್ಮ ನೈತಿ ಮಾಮೇತಿ ಸೋರ್ಜುನ. ಭಯ ಕ್ರೋಧಾಗ ಮನ್ಮಯಾಮಾಂ ಉಪಾಶ್ರಿತಾಗ ಭಗವೋ ಜ್ಞಾನ ತಪಸ ಭೂತಾ ಮಧ್ವಾವಂ ಆಗತಾಗ. ಕಾಂಕ್ಷಂ ತಃ ಕರ್ಮಣಾಂ ಸಿದ್ಧಿಂ ಯಜಂತ ಹಿತ ದೇವತಾಃ ಕ್ಷಿಪ್ರಂ ಹಿ ಮಾನುಷೇ ಲೋಕೇ ಸಿದ್ಧಿರ್ಭವತಿ ಕರ್ಮಜ. ತಸ್ಯ ಕರ್ತಾರಮಪಿ ಮಾಂ ವಿದ್ಯಕರ್ತಾರಂ ಅವ್ಯಯಂ. ನಮೇ ಕರ್ಮ ಫಲೆ ಸ್ಪೃಹಾ ಇತಿ ಮಾಂ ಯೋಭಿಜಾನಾತಿ ಕರ್ಮಭಿಃ ನ ಸಬಧ್ಯತೆ. ಜ್ಞಾತ್ವಾ ಕೃತಂ ಕರ್ಮ ಪೂರ್ವೈರಪಿ ಮುಮುಕ್ಷುಭಿಃ ಕುರು ಕರ್ಮೈವ ತಸ್ಮಾತ್ ತ್ವಂ ಪೂರ್ವೈಃ ಪೂರ್ವತರಂ ಕೃತಂ. ಕರ್ಮ ಕಿಮ ಕರ್ಮೇತಿ ಕವಯೋಪ್ಯ यत्र मोहिताः तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्षसे शुभात्। कर्मणि अकर्म यपश्येत् अकर्मणि च कर्म यः सबुद्धिमान् मनुष्येषु सयुक्तः कृष्णकर्म कृत्। यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ज्ञानाग्नि दग्ध कर्माणम् तमाहुः पण्डितम् बुधाः। कर्मफलासङ्गम् नित्यतृप्तो निराश्रयः कर्मणि अभिप्रवृत्तोऽपि नैव किञ्चित् करोति सदा। निराशीः यत चित्तात्मा यत सर्वपरिग्रहः शारीरम् केवलम् कर्म कुर्वन् दाप्नोति किल्बिषम्। यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः समः सिद्धौ असिद्धौ च कृत्वापि न निबध्यते ये गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसका यज्ञायाचरतः समग्रं प्रविवीर्यते। ब्रह्मार्पणं ब्रह्महविः ब्रह्मात्रौ ब्रह्मणाहुतौ ब्रह्मैव तेन गन्तव्यम् ब्रह्मकर्म समाधिना। पर्युपासते ब्रह्मात्रौ अपरे यज्ञं यज्ञेनैवोपजुह्वति। संयम योगाग्रौ युक्वति ज्ञानदीपिते। अपाने जुह्वति प्राणम् प्राणे पानं तथा परे प्राणापानगति रुद्ध्वा प्राणायाम परायणा। अपरे नियताकाराः प्राणां प्राणेषु जुह्वति। सर्वेभ्येते यज्ञविदो यज्ञक्षपितकल्मषाः नायं लोकोस्ति अयज्ञस्य कुतोऽन्यः कुरु सत्तमा। एवं बहुविधा यज्ञाः विततः ब्रह्मणो मुखे कर्मजान् विद्धितान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे। भावान् लभते ज्ञानम् तत्परः संयतेन्द्रियः ज्ञानम् लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति। अज्ञश्च अश्रद्दधानश्च संशयात्मा विनश्यति नायं लोकोऽस्ति न परो न सुखं संशयात्मनः संन्यस्तकर्माणम् ज्ञानसंच्छिन्न संशयम् आत्मवन्तम् न कर्माणि निबद्धन्ति धनञ्जया। तस्मादज्ञानसम्भूतम् हृष्टम् ज्ञानासीनात्मनः चिद्वैरम् संशयम् योगम् आतिष्ठोत्तिष्ठ भारत। श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः।